धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामुकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जया किम् अकुर्वत सञ्जया
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत्
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता
अत्र शूरा महेश्वासा भीमार्जुन समायुधि दुर्योधनो विराटश्च द्रुपदश्च महारथः दुर्योधनो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितारः काशीराजश्च वीर्यवान् पुरुजित् कुन्तिभोजश्च विक्रांत उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः सर्व एव महारथाः
अस्माकं तु विशिष्टाये तानि बोध द्विजोत्तमा नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्मापि रक्षितं पर्याप्तं त्विदमेतेषां बलं भीमापि रक्षितं पर्याप्तं त्विदमेतेषां बलं भीमापि रक्षितं बलं अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मे अच्युत यावदेतान् निरीक्षेऽहम् योद्धुकामान् अवस्थिता कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे
संजय उवाच
तत्रापश्यत् स्थितान् पार्थ पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् कृपया परया विष्टो विषीदन् इदम् अब्रवीत्
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सु समुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं श्रमसते हस्तात् त्वक्चैव परिदह्यते न च शक्नोमि अवस्थातुं भ्रमतीव च मे मनः
शरं चापं शोकसंविद्ध ಮಗ್ನಮಾನಸಃ ಶೋಕ ಸಂವಿಗ್ನಮಾನಸಃ